मन्त्रपुष्पम् योपां पुष्पम् वेद पुष्पवान् प्रजावान् वशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् वशुमान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति
अग्निर्वा अपामायतनायतनवान्
भवति
योऽग्नेरायतनम् वेद
आयतनवान् भवति
आपो वा अग्नेरायतनायतनवान्
भवति
एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
वायुर्वा अपामायतनायतनवान्
भवति
यो वायोरायतनम् वेद आयतनवान्
भवति
आपो वै वायोरायतनायतनवान्
भवति
एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
असो वै तपन्नपामायतनायतनवान्
भवति
यामुष्यतपदहायतनम् वेद
आयतनवान् भवति
आपो वा अमुष्यतपदहायतनायतनवान्
भवति
य एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
चन्द्रमा वा अपामायतनायतनवान्
भवति
यश्चन्द्रमसहागतनम् वेद आयतनवान्
भवति
आपो वै चन्द्रमसहागतनायतनवान्
भवति
य एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
नक्षत्राणि वा अपामायतनायतनवान्
भवति
यो नक्षत्राणामायतनम् वेद आयतनवान्
भवति
आपो वै नक्षत्राणामायतनायतनवान्
भवति
एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
पर्जन्यो वा अपामायतनायतनवान्
भवति
य पर्जन्यस्यागतनम् वेद आयतनवान्
भवति
आपो वै पर्जन्यस्यागतनायतनवान्
भवति
एवम् वेद योऽपामायतनम् वेद आयतनवान्
भवति
संवत्सरो वा अपामायतनायतनवान्
भवति
संवत्सरस्यागतनम् वेद
आयतनवान्
भवति आपो वै संवत्सरस्यागतनायतनवान्
भवति
एवम् वेद योऽप्सुनापम् प्रतिष्ठिताम् वेद प्रात्येव तिष्ठति
राजाधिराजाय प्रसज्ञसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः यो वेदादौ स्वरप्रोक्तो वेदान्देय प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स्वमहेश्वरः